एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं महालेखा परीक्षकस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते कार्यक्रमे राष्ट्रपतेः पौडेलस्य समक्षं महालेखा परीक्षकः तोयम रायः प्रतिवेदनं प्रस्तौत। तदवसरे राष्ट्रपतेः पौडेलः वर्धमानस्य अवैधानिकस्य सर्वकारीय व्ययस्य दर्शनेन सार्वजनिक निकायेष् उत्तरदायित्वस्य पारदर्शितायाः आर्थिकान् अनुशासनस्य च अतिरिक्त सुदृढीकरणस्य आवश्यकतां प्रत्यपादयत्। तदवसरे राष्ट्रपतिः पौडेलः प्रतिवेदने उत्थापितैः विषयवस्तुभिः सम्बद्धा निकायाः पक्षास्य अतिरिक्त दायित्ववाहिनः करिष्यन्ते इति विश्वासं व्यक्तवान्। राष्ट्रपतेः समक्षं प्रस्तुते गतार्थिक वर्षस्य प्रतिवेदने विधिविपरीततया विहितः समग्रव्ययः 7,55,000 च रूप्यकाणां वर्तते इति उल्लिखितमस्ति। संविधानस्य संशोधनाय विमर्शनपत्रं निर्मातुं संघटितेन कार्यदलेन जनजीयूनां प्रतिनिधिभिस्सह विमर्शनस्य क्रमे दृष्टानां समस्यानां समाधाय समीचीनतया अग्रे गन्तुम् अनुरुद्धमस्ति। कार्यदलस्य संयोजकेन असीमसाहेन सर्वेषां निकायानां परामर्शं संश्लिष्य विमर्शनपत्र निर्माणं कार्यदलस्य लक्ष्यमस्ति इति चर्चयता, लक्ष्यस्य अनुसारेण जनजी युवानोऽपि परामर्शार्थम् आहूताः सन्ति इति उक्तम् वर्तते। सर्वकारेण सार्वजनिक क्रयणे मितव्ययितां धर्तुम् अत्यावश्यकं विहाय अन्यविधावस्थायां सर्वविधानां नवीनानां सामग्रीणां क्रयणं न कर्तुं निर्दिष्टमस्ति। प्रधानमन्त्री मन्त्री परिषदः कार्यालयेन सर्वकारस्य सर्वे मन्त्रालयाः आयोगाः सचिवालयाः कार्यालयाः सर्वकारीय निकायाश्च मुख्यमन्त्री मन्त्री परिषदः कार्यालयाः अन्येषु सर्वविधेषु च निकायेषु परिपत्रं विधाय एवं निर्दिष्टाः वर्तन्ते। कृषि वन पर्यावरण मन्त्री गीता चौधरी कृषि व्यवसायं मर्यादितं आकर्षकञ्च विधातुं नीतिगत सुधाराय स्रोतसां व्यवस्थापनाय च सर्वकारः प्रतिबद्धोऽस्ति इति उक्तवती वर्तते। कृषि सहकारी प्राकृतिक स्रोत समितेः ह्य उपविष्टे उपवेशे मन्त्री चौधरी कृषिक्षेत्रस्य शिक्षाम् अनुसन्धानं प्रविधिं च समयानुकूलं परिमार्ज्य जनमुखान् विधातुं पूर्वकार्यं विधीयमानमस्ति इति प्रावोचत्। उपवेशे सांसदैः रासायनिक मलस्य अत्यधिकेन प्रयोगेण मृत्तिकायाः उर्वरा शक्तेः न्यूनीभवनेन सहैव जनस्वास्थ्येषु अपि क्षतिः प्राप्यमाणा अस्ति इति उक्त्वा राष्ट्रस्य जलस्रोतः विद्युतं प्रयुज्य हरित हाइड्रोजन इति प्रविधेर माध्यमेन मलस्योत्पादनं विधातव्यम् इत्यत्र बलं दत्तमासीत्। उपवेशे मन्त्रालयस्य सचिवः डॉ राजेन्द्र प्रसाद मिश्रः कृषिक्षेत्रस्य व्यावसायिकीकरणाय संघस्य प्रदेशानां स्थानीयस्तराणां च सहकार्यम् आवश्यकमस्ति इति प्रावोचत्। सूचना संचार मन्त्री डाक्टर विक्रम तिमिलसिन्हा निगदति संचार स्वतन्त्रतायाः अभिव्यक्ति स्वतन्त्रतायाश्च संरक्षणाय सर्वकारः पूर्णतः प्रतिबद्धो वर्तते। संचारिका समूहेन सह ह्य सम्भूते मेलने संचार मन्त्री डाक्टर तिमिलसिन्हा संचार स्वतन्त्रता लोकतान्त्रिक व्यवस्थायाः आधारोऽस्ति इत्यतः अस्याः संरक्षणाय सर्वकारः प्रतिबद्धोऽस्ति इति प्रावोचत्। तदवसरे मन्त्री डाक्टर तिमिलसिन्हा नियमितरूपेण पारिश्रमिकस्य अप्राप्ते समस्यायाः श्रमाधिकारस्य क्रियान्वयनाभावस्य असुरक्षित वातावरणे कार्यकरणस्य अवस्थायाश्च अन्त्यं विधातुं मन्त्रालयेन प्रयत्नो विधीयमानोऽस्ति इति अगदत्। संसदीय श्रवण समितेः सभापतिः बोधनारायण श्रेष्ठः संसदीय श्रवणस्य पश्चात् नियुक्तेन जनेन प्रस्तुतायाः प्रतिबद्धतायाः अनुसारेण विहितानां कार्याणां परिणाम चातुर्मासिकरूपेण प्रकाशनीयो भविष्यति इति व्यवस्था समित्या विहिता अस्ति इति सूचितवान् वर्तते। संसद सचिवालये ह्य पत्रकारैस्सह विहिते विमर्शने सभापतिः श्रेष्ठः संसदीय श्रवणानन्तरं नियुक्तेन अधिकारिणा समितौ प्रस्तुतां परिणामे आधृतायाः कार्ययोजनायाः सम्बद्धनिकाये अभिलेखीकरणं कृत्वा चातुर्मासिकरूपेण वैद्युत संचार माध्यमेन सार्वजनिकीकरणस्य व्यवस्था कार्यविधौ विहिता अस्ति इति प्रावोचत्। असौ अगदत विधि प्रक्रियांश आधृत्य श्रवणम स्वच्छम पारदर्शी प्रभावकारी च विधाय अग्रे वर्धिष्यते। सभापति श्रेष्ठ सांविधानिक परिषदा प्रधान न्यायाधीश पदे परामृष्टस्य सर्वोच्च न्यायालयस्य न्यायाधीशस्य मनोज कुमार शर्मण श्रवण प्रक्रियाया कृते याचिका निवेदनानाम् आह्वानं विहितमस्ति। आगामिनि मंगलवासरे याचिका निवेदनानाम् अध्ययनं कृत्वा श्रवणं विधास्यते इति असूचयत्। लुम्बिनी प्रदेश सर्वकारेण आगामिनः श्रावण मासस्य प्रथम दिवसात् प्रदेशे मन्त्रालयानां संख्यायाः अष्टौ निर्धारणाय पूर्वकार्यम् अग्रेसारितमस्ति। प्रदेश सर्वकारस्य प्राशासनिक कार्येष् सुधारं कर्तुं मितव्ययितां विधातुम् अनावश्यकं व्ययं न्यूनीकर्तुम् अथ च कार्य सम्पादनम् अतिरिक्तं प्रभावकारी सहजं च विधातुं मन्त्रालयानां संख्यायाः न्यूनीकरणाय निर्णीतमस्ति। लुम्बिनी प्रदेशे सम्प्रति द्वादश मन्त्रालयः वर्तन्ते। प्रदेशस्य प्रमुख सचिवस्य कृष्ण प्रसाद काप्री इत्यस्य संयोजकत्वे संघटितायै संघटन व्यवस्थापन सर्वेक्षण समित्यै प्रदेश सर्वकारस्य कार्यविभाजन नियमावल्याम् आवश्यक संशोधनस्य प्रारूपेण सहितस्य प्रतिवेदनस्य प्रस्तुते निर्देशनं प्रदातुं निर्णीतं वर्तते। नेपाली कांग्रेस दलस्य कोषाध्यक्ष पदे केन्द्रीय सदस्य उमेश श्रेष्ठ मनोनीतोऽस्ति। दलसभापतिना गगन कुमार थापा भिदेन ह्य दलस्य विधानस्य अनुसारेण श्रेष्ठ कोषाध्यक्ष पदे मनोनीतोऽस्ति इति दल केन्द्रीय कार्यालयस्य कार्यवाहक मुख्य सचिवेन कृष्ण प्रसाद दुलालेन ज्ञापितं वर्तते। श्रेष्ठ एतत्पूर्वमपि दलस्य कोषाध्यक्ष आसीत्। प्युठान जनपदस्य माण्डवी ग्रामपालिकायाः डामरीखोला स्थाने जीपयानस्य दुर्घटनायां द्वौ जनौ मृतौ स्तः। देवीस्थान दाङ्गमार्ग खण्डे जीपयानम् अनियन्त्रितं सत् मार्गात् आसन्न शतद्वय मीटरमितम् अधः पतितमासीत्। दुर्घटनायां प्युठान नगरपालिकायाः चतुर्थवडा क्षेत्रस्य चतुर्विंशति वर्षीयः दिलीप परियारः, मल्लरानी ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य षड्विंशति वर्षीयः अभिषेक कुवरः मृतौ स्त इति प्रहरिणा ज्ञापितं वर्तते। इति समाचारः।